सर्वेभ्यो नमः, स्वागतम्। वयं प्रार्थनां वदामः। बृन्दा भगिनी,
वयं प्रार्थनां वदामः।
ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। श्रीगुरुभ्यो नमः। हरि ओम्।
धन्यवादः प्रणता भगिनी। अस्तु, प्रथमतया वयं राधा भगिन्याः उपस्थापनं शृणुमः, अनन्तरं वयं गृहपाठं कुर्मः।
भगिनि, अहं कथाम् आङ्ग्लेयभाषाम् अनुवादनं कृत्वा तदनन्तरं वाक्यं पदस्य परिचयं करोमि।
अस्तु।
वञ्चकः बकः। कुत्रचित् अरण्यप्रदेशे एकः सरोवर आसीत्। In some forest area there was a pond. Tatra bahvaha jalacharaha asan. There there were many aquatic life. Kashchan bakaha api tatra kashchana baka api tatra bahu kalatah vasati sma. A certain crane also lived there for a long time. Kalantare sah bakah vriddha abhavat. In due course of time, the crane became old. Vardakya karanatah सः मत्स्यान् ग्रहीतुम् अपि असमर्थः अभवत्। ड्यू टु ओल्ड् एज् ही कुड् नाट् गेट् हिस् फुड्। ही बिकेम् इन्केपबल् आफ् गेटिङ्ग् हिस् फुड्। इदानीं कथम् आहारः सम्पादनीयम्? नौ हौ डु ऐ प्रक्योर् मै फुड्? इति चिन्तयन् सः एकम् उपायम् अन्विष्टवान्। थिङ्किङ्ग् सो ही सर्च्ड् फार् अ सोल्यूशन्। सरोवरस्य तीरे स्थित्वा अश्रुनी मृञ्जन् वाट् इस् इट् मृच्छन् मुञ्चन् सः रोदनम् आरब्धवान्। He stood on the banks of the pond, teary-eyed and started crying. तदा कश्चन कर्कटः तस्य समीपम् आगत्य पृष्टवान्। Then a certain crab came near him and asked, Mam, kimartam bhavan rodanam?
Mama,
kimartanam bhavan rodanam? Mama, kimartam bhavan rodanam karoti iti? What is mama?
Oh no, like just like a sambodhanam.
Okay. Oh no, why are you crying? Tada bakah uktavan. Adya daivatnya mukatah aham ekam durvartam shrutavan.
Oh.
Then the crane said, today I heard astrologer's prediction, a bad message from an astrologer's prediction. Itaha param dvadasha varshayantam atra anavadasha
varsha paryantam.
Itaha param dvadasha varsha paryantam atra anavrishtih bhavishyati iti. From today, for 12 years, there will be drought in this place. Asmakam sarovare kinchideva jalam asti. In our pond, right now, there is little bit of water. Pardon?
There is only a little bit of water.
Only a little bit of water. Shigram eva tadapi shushkam bhavishyati. Soon it will dry up. Tada mama bandavaha bhavantaha sarve api mrittaha bhavishyanti kila iti mama ativa dukham iti. Then my relatives and yours will be dead. Supposedly that is why this sadness. Tat shrutva karkataha tam vartam anya jalacharan niveditavan. Hearing this, the crab announced this to the other aquatic creatures. Te sarve api bitaha santaha bakasya samipam agatavantaha. All of them were scared and approached near the crane.
Approached the crane.
Vinayena tam prishtavantaha. With humility, they asked him, Mama, asmakam pranarakshanartham kopi upaya asti kim? To save ourselves, do you have any idea? Iti.
Solution.
Tada bakaha uktavan. Then the crane said, itaha kinchit dure anya kashchanaha sarobara asti. From here, a little nearby, there is a certain other pond. Tatra prabhutam jalam asti. There is plenty
prabhutam.
Of water. Prabhutam. Plenty of water. Tat kadapi shushkam na bhavishyati. That never dries up. Yadi bhavantaha mama prishtam arohanti. Tarhi aham bhavantaha sarvan tatra nayami iti. If all of you climb on to my back, then I will carry you all there. Tada te jalacharah mahata utsahena tam paritam sitavantaha. Then all the aquatic creatures climbed all over the sides with great enthusiasm. Bakaha tan prishte aropya tataha prasitavan. Having them on their back, he started forth. Kinchit dure eka shila asit. In a certain distance, there was a rock. Tatra tan stapayitva saha santoshena kaditavan. He put them down there and happily ate them. Evameva saha bahun jalacharan kaditavan. Similarly, he ate many of the aquatic creatures. Ekasmin dine karkataha uktavan. One day, the crab said, Mam, adya, mam, nayatu, iti. Today, can you carry me over? Astu, adya, karkata kasya mamsam khadami. Yes, today I will eat the crab's flesh. Iti chintayitva bakaha tam prishte aropitavan. Thinking so, he put him on his back. Vidyashilam prati gatavan cha. The stone, he moved towards the rock used to kill him. Karkatakaha dura devashilayam. पतितानि अस्तिनि दृष्ट्वा बकस्य दुरालोचना ज्ञातवान् द क्राब् सा द फार् अवे स्टोन् लिटर्ड् वित् दि बोन्स् एण्ड् अण्डर्स्टुड् हिस् ईविल् प्लान् अतः सः स्वदन्तद्वयेन बकस्य कण्ठं दृढं गृहीतवान् So, Grihitavan. So, he used his tooth and imprisoned the neck of the prey. Vedanaya rodhan kurvan saha vanchaka bakaha mrataha. He cried with pain and the rogue crane died.
Yes.
Vakya pada padasya pari chaya karomi. Kutrachit abhyayam aranya pradeshe karma padam aranya shabda napunsaka eka saptami vibhakti. Ekaha visheshana.
Eka vachanam saptami vibhakti.
एकवचनं सप्तमी विभक्ति एकः विशेषणं सरोवरः कर्तृपदं सरोवरशब्दस्य पुल्लिङ्ग प्रथम एकवचनं आसीत् क्रियापदम् तत्र अव्ययं बहवः विशेषणं जलचराः कर्तृपदं जलचरशब्दस्य अकारान्तपुल्लिङ्ग बहुवचनं आसन् क्रियापदम् कश्चन अव्ययं बकः कर्तृपदम् अपि अव्ययं तत्र अव्ययं बहु कालतः बहु विशेषणं कालतः विशेष्यं पञ्चमी विभक्ति वसति क्रियापदं म अव्ययं कालान्तरे अकारान्तनपुंसकलिङ्गं एकवचनं सप्तमी विभक्ति सः बक ह कर्तृपदं वृद्धः कर्मपदं बहुवचनम् अभवत् क्रियापदम् अभवत् वृद्धः
बहुवचन
वृद्धः इस् बहुवचन
न वृद्धः इति
एकवचनं
एकवचनम्
वार्धक्यकारणतः वार्धक्यकारणतः पञ्चमी विभक्ति सः कर्तृपदं मत्स्यान् मत्स्यशब्दः अकारान्तपुल्लिङ्गद्वितीय बहुवचनं गृहीतुं ग्रहीतुं क्रिया पदं तुमन् प्रत्यय अपि अव्ययम् असमर्थः न जानामि. असमर्थः इस् जस्ट् अ वर्ड्. अभवत् क्रिया. इदानीम् अव्ययं कथं
भगिनी? Sorry to interrupt. I had a question, Bhagini.
Yes, please.
In the previous line, kalantare saha bakaha. So saha and bakaha both are kartupadam in this.
No, saha is just saying which bakaha. It's just saying the bakaha that we talked about, in the sentence before.
Okay, so the kartupadam will be only bakaha.
Yeah.
So then what will saha be in the sentence?
You can say it's a visheshanam because it's just saying which bakaha.
Okay, and asamarthaha will not be visheshanam? Visheshyam?
I had identified it as adjective, but Bhagini striped it off.
Okay.
Incapable.
Yeah, incapable. I thought it was a vishesh.
Yeah. Describing saha, right? So I thought it was an adjective.
I wasn't sure about that, so...
Okay. No problem.
No problem. Idanim avyayam katam. Aharaha is karma padam. Ahara pullinga ekavachana shabda. Sampadaniyah is kriyapadam, anirya pratyaya. Anir pratyaya. Iti avyayam, chintayam,
kriyapadam. Chintayan.
Chintayam. Kriyapadam, shatru.
Chintayan, Bhagini.
Have I written it wrong? Chintayan, is it?
Yeah.
Chintayan, Shatru Pratyaya. Saha is Kartrapadam. Ekam, Visheshanam. Upayam, Karmapadam. Upaya, Shabdasya, Akaranta Pullinga, Ekavachana, Dvitiya Vibhakti. Anvishtavan, क्रियापदं त्वतुं प्रत्यय
तवतु
तवतु ओ द क साइलेंट तवतु प्रत्यय सरोवरस्य अकारान्त पुल्लिंग षष्ठी विभक्ति एकवचन तीरे अकारान्त पुल्लिंग सप्तमी सरोवरस्य एंड तीरे बोथ आर कर्मपदम इज व्हाट आई विल
Sarovarasya and Tira, they can't be karma padam, right?
So what words are they, Bhagini?
What did you say was karma padam?
I marked both Sarovarasya Tira.
As?
Karma padam.
No. Because karma padam is always in tritiya vibhakti.
Rodanam will.
Yeah,
will,
rodanam.
Rodanam will be karma padam.
Yeah, rodanam.
What is sarovarasya tire? It doesn't qualify as anything?
No. It's just describing where. That's all.
Tritva kriya padam. Tva pratyaya, ashruni, ashru shabdasya napumsaka bahuvachana.
Ashruni.
Ashruni. Namrumjan. Kriyapadam, shatru pratyaya. Ha kartrupadam, rodanam karmapadam. आरब्धवान् त्वतु प्रत्यय क्रिया
तवतु
तवतु प्रत्यय क्रियापदं तदा कश्चन अव्यय
कश्चन
कश्चन तदा कश्चन अव्ययं कर्कटः कर्तृपदं तस्य कर्कटकः 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 तस्य कर्मपदं
तस्य कर्मपदं न भवति
न भवति
तस्य इति षष्ठी विभक्तिः भवति कर्मपदं
षष्ठी विभक्ति
बट् तस्य केनाट् बि कर्मपदं बिकास् तस्य इस् इन् षष्ठी विभक्ति
सो कर्मपदम् इस् ओन्लि तृतीया विभक्ति
द्वितीया इट् इस् ओन्लि इन् द्वितीया विभक्ति
समीपम् अड्जेक्टिव् आगत्य लयप्रत्यय पृष्टवान् यप् प्रत्यय पृष्टवान् त्वतु प्रत्यय
तवतु
तवतु प्रत्यय एव्री टैम् ऐ मिस् किमर्थं भवान् इस् कर्तृपदं भवत् शब्दस्य प्रथमा विभक्ति एकवचनपुल्लिङ्गं रोदनं कर्मपदं करोति क्रिया तदा अव्ययं बकः कर्तृपदम् उक्तवान् क्रियापदं तवतु प्रत्यय अद्य दैवज्ञमुखतः पञ्चमी विभक्ति अहं
यस् भगिनि
What is Daivagnya Mukhataha? Agni, I missed that. I think Radha Bhagini has gone on mute.
Yeah.
Yeah, she's on mute. Radha Bhagini, you are on mute.
No, you're not on, I don't think she's on mute now. I think she left the meeting now.
I think she has some Wi-Fi problem probably.
Yeah.
Meanwhile, Bhagini, what is Daivagnya Mukhatah? Kriya Padam?
No. It's just Panchami Vibhakti.
Panchami Vibhakti, okay. What is the meaning of that word, Bhagini?
Which word, Bhagini?
The Devagya Mukataka.
Astrologer's mouth.
Yeah.
Astrologer, sorry. Brinda Bhagini, I only caught half.
From the mouth of the astrologer.
Okay, thank you. I think Radha Bhagini just sent a message. She's saying that she has a power outage. She can't join.
Oh, okay. Should we start the homework till she comes back?
Yeah, I think so. We can do that.
Kashyadeva? अत्र आगामिसप्ताहे एकनिमेषपर्यन्तं किं वदिष्यन्ति इति चिन्तयतु. अत्र विषयः अस्ति एतत् चित्रं विवृणोतु. अस्तु, शीला भगिनी भवती करोति वा?
अहं प्रयत्नं करोमि भगिनि. गृहपाठः न करोमि, न कृतवती. मम प्रयत्न करोमि, अहं प्रयत्न करोमि. एतत् चित्रं एकं गृहे अस्ति. गृहस्य पृष्ठतः वृक्षौ सन्ति,
वृक्षाः सन्ति.
बालकाः कन्दुकानि क्रीडन्ति,
कन्दुकेन क्रीडन्ति.
अहं शुनक दृश्यामि पृष्ठतः. शुनकः दृश्यते. न शक्नोमि भगिनि.
अस्तु, नो प्राब्लम्, चिन्ता मास्तु भगिनि. अस्तु, बृन्दा भगिनि भवती प्रयत्नं करोति वा?
आं भगिनि. Bhagini, I have already written the sentences, so can I read them out?
Haan, Bhagini.
Etat chitram bruhat bhavanah darshati, tat gramiya parisaram asit, bhavanah puratah trini balakaha kandukena kridanti, dvau balakau prushtatah prakoshte upavishyanti, तत्र समीपे एकं कुकुरः आसीत्. अस्ति. भवन दक्षिणतः उन्नतः वृक्षम् अस्ति. वातायने एकं बिडालः अस्ति. चित्रपतङ्गाः पुष्पायाम् उडयन्ति.
समीचीनम्. अस्तु, प्रिया भगिनी भवती
करोति.
चित्रपतङ्गाः पुष्पायाम् उडयन्ति.
What is that?
The butterflies are flying around the flowers.
Okay.
अत्र अस्ति किल?
नैस् वन् भगिनि.
अस्तु, इदानीं
धन्यवादः भगिनि.
Haan, Bhagini. Some of my sentences are just inferences, Bhagini. I just wanted to try making sentences.
No problem, Bhagini.
एकनगरे एकं गृहे अस्ति. इस् इट् एकम् ओर् एकः भगिनि? ऐ वास् नॉट श्योर्
फोर् वट्
नगरे एकनगरे एकं गृहे अस्ति. ऐ एम् नाट् श्योर् हौ टु ग्रामेटिकलि से इट् करेक्ट् in there was a house
nagare ekam graham asit
graham ekam graham asit
ekah nagare ekam graham asit
ekah nagare
ekam
ekah nagare ekam graham asit. Okay, thank you. गृहं बहु सुन्दरम् अस्ति.
पुनः वदतु भगिनि.
गृहं बहु सुन्दरम् अस्ति. ओके. गृहं परितः तृणम् अतिहरितम् अस्ति. तत् गृहे माता पिता द्वि बालकः एकं बालिका च वसन्ति. गृहे द्वि कुक्कुरः च वसन्ति. एकं कुक्कुरः वातायनेन बहिः वातायनेन बहिः तिष्ठति.
अस्ति.
दृष्टति. ऐ एम् सेङ्ग् दट् द डाग् इस् लुकिङ्ग् औट् थ्रू द विण्डो. भगिनि, एकः कुक्रः वातायनेन बहिः तिष्ठति.
इट्स् बेटर् टु यूस् षष्टी देर्. नस्य बहिः पश्यति.
Please repeat that, Bhagini.
You can put Shashti there.
Okay.
So it will be Tasya Bahihi Pashyati.
Oh, okay. Okay.
So Bhagini, it will be Kukuraha Vatayanasya Bahihi Pashyati.
Yeah.
Okay.
अद्य ग्रीष्मकाले मध्याह्नं वातावरणं सम्यक् अस्ति.
समीचीनं भगिनि.
अतः गृहस्य पुरतः बालकः कन्दुकेन क्रीडति. गृहस्य वामतः एकं फलकम् अस्ति. I didn't know what to say for bench, Bhagini. Don't know if palakam is the right word.
Prakoshte was what I found. Prakoshte.
Oh, okay.
Sorry, Bhagini. I had to stop because of the power outage.
No problem, Bhagini. Ekam... पीठमस्ति.
पीठम्. ओके. गृहस्य वामतः एकं पीठम् अस्ति. तत्र बृहत् वृक्षस्य अधः माता पिता च फलकस्य उपरि उपविशन्ति. सर्वे सन्तोषेण भवन्ति.
सन्तोषाः भवन्ति.
ओके. I thought Tritiya would be used here, Bhagini. So.
No.
Okay. That's all I had, Bhagini.
Samichina, Bhagini. Namaskara, Radha, Bhagini.
Namaskaram, Bhagini. Can I do this, Bhagini?
Come, Bhagini. And then we can go back to your Upasthapana.
एका बालिका द्वौ बालिकौ च पादकन्दुकं क्रीडन्ति तेषु
कन्दुकेन क्रीडन्ति
तेषु पृष्ठतः गृहम् अस्ति गृहस्य वामतः वृक्षम् अस्ति वृक्षस्य अधः दीर्घपीठम् अस्ति तत्र एका बालिका तस्याः शुनकः च आसीत् वृक्षस्य वामतः तस्य प्रतिच्छाया दृश्यते गृहस्य पुरतः पुष्पाणि विकसन्ति गृहस्य वातायनद्वारा कोऽपि बहिः स्थिरदृष्टया पश्यति नील आकाशं हरित तृणां मग्नाः बालाः एतत् चित्रम् अतिसुन्दरम्
समीचीनं भगिनि
Bhagini, I don't know till where you heard because I kept reading and suddenly realized that there was a power outage.
No problem, Bhagini. I'll see. I think we...
Daivagnya Mukhataha.
Yeah, here. We stopped here. Right at Daivagnya Mukhataha.
Daivagnya Mukhataha, Karmapadam...
No. पञ्चमी विभक्ति भवति कर्मपदं नास्ति
पञ्चमी विभक्ति सोरि अहं कर्तृपदम् एकां विशेषणं दुर्वार्तां दुर् इस् विशेषणं वार्ता विशेष्यं श्रुतवान् क्रिया तव तु प्रत्यय पितः अव्ययम् परं विशेषणं द्वादशवर्षपर्यन्तं पर्यन्तं अव्ययम् अत्र अव्ययम् अनावृष्टिः इकारान्तस्त्रीलिङ्गप्रथम एकवचनं
भविष्यति एकवचनं
भविष्यति क्रिया इति अव्ययम् अस्माकं षष्ठी विभक्ति आफ् अस् पदं सरोवरे सप्तमी विभक्ति किञ्चित् एव अव्ययं जलं कर्मपदम् अस्ति क्रियापदं शीघ्रम् एव ऐ हेव् रिटन् इट् एस् एड्वर्ब् भगिनी ऐ डोण्ट् नो द संस्कृत वर्ड् फोर्
No, for now we'll not use adverb bhagini. Let it just be shigrameva.
Okay. Tadapi abhyayam shushkam kartrupadam akarant pullinga dvitiya ekavachanam. Bhavishyati kriyapadam tada abhyayam mama kartrupadam बान्धवाः कर्मपदम् अकारान्त पुल्लिङ्ग बान्धवाः शब्दस्य बहुवचनं भवन्तः कर्तृपदं भवत् शब्दस्य बहुवचनं सर्वे विशेषणम् अपि अव्ययं मृताः मृतशब्दस्य पुल्लिङ्गप्रथमा बहुवचनं भविष्य
भगिनी सर्वे सर्वनाम पदम्
डिक्शनरी सेड् इट् वास् एड्जेक्टिव् भगिनी
सर्वनामपदम्
भविष्यन्ति क्रियापदं भूतकाल सूचयति किल इति मम इति अव्ययं मम कर्तृपदम् अतीव विशेषणं दुःखं नपुंसकलिङ्गप्रथमा विभक्ति एकवचन इति अव्यय तत् श्रुत्वा श्रुत्वा क्रियापदं वा प्रत्यय कर्कटकः कर्तृपदं तां वार्तां वार्ताम् इस् कर्मपदम् अन्यजलचरान् अन्यविशेषं जलचरान् विशेष्यं निवेदितवान् क्रियापदं तव तु प्रत्यय
भगिनी वन् सेकेण्ड् सोरि भगिनी इन् द प्रीवियस् सेण्टेन्स् अतीव दुःखं विल् दुःखं बि कर्मपदं ह्यर् एण्ड् नाट् प्रथमा विभक्ति द्वितीयवचनं कर्मपदं रैट् किं
कर्मपदम् ओन्लि
ओके
रेडि जस्ट् कर्मपदम् अतीव इस् द अड्जेक्टिव् एण्ड् दुःखम् इस् कर्मपदम्
ओके सोरि टु इण्टरप्ट्
Am I going too fast?
No, Bhagini.
Te sarve, te is kartrupadam, sarve is sarvanama padam, api abhyayam, bitaha is karma padam, santaha kriya padam, bakasya kartrupadam, samipam
न बकस्य इति कर्तृपदं न
कर्तृपदं
कर्तृपदं न भवति
न भवति
कर्तृपदं प्रथमविभक्तिः भवति
Yeah.
These are compound sentences, so I really don't know how to deal with them, Bhagini. Can you please tell us how to split the compound sentences and pick out the kartra and kartra?
Okay. If we take this sentence, 1 minute. Here,
Bhagini, what will be Santaha over here? Santaha will be the Kartu Padam, yeah. Right?
No.
That is Kriya.
Kriya. So
Santaha is Kriya, okay.
So there are two Kriyas right here.
Yeah, Agatavantaha.
Yeah.
Tavatatakya.
Atra, जानीमः कर्तृपदं सर्वदा प्रथमविभक्तिरूपेण भवति इति तत्र प्रथमविभक्तिरूपेण किम् अस्ति पकस्य इति न भवति अत्र ते इति एव अस्ति अस्तु तत्र क्रियाद्वयम् अस्ति सन्तः आगतवन्तः तत्र कर्तृपदं वयं जानीमः सर्वदा प्रथमाविभक्तिरूपेण भवति तत्र किम् अस्ति अत्र प्रथमविभक्तिरूपे पकस्य इति षष्ठी विभक्ति भवति समीपमिति द्वितीया भवति भीताः न भवति अपि इति अव्ययं भवति तदपि न भवति ते ते सर्वेति विशेषणं भवति कर्मपदं कथं जानीमः तत्र कर्मपदं द्वितीयाविभक्तिरूपेण भवति. अत्र समीपम् एव द्वितीयाविभक्तिरूपेण अस्ति.
अस्ति कर्मपदं समीपम्.
अस्तु भगिनि.
Now I got it, Bhagini. Thanks. Mama. Asmakam pranarakshanartam kopi upaya asti kim. Asmakam is kartrupadam. Kopi
is... Atra. Asmakam. Iti. Atra. भवती जानाति अस्ति इति क्रियापदं किल. अनन्तरं कर्तृपदं द्वितीयाविभक्तिरूपेण द्वितीयेन कर्तृपदं प्रथमाविभक्तिरूपेण भवति. अत्र अस्माकमिति का विभक्तिः?
अस्माकं षष्टि नो षष्टि आफ् अस्
अत्र किम् अस्ति प्रथमाविभक्तिरूपेण?
अहम्
मम इतोनि मम उपायः अस्ति. अत्र उपायः इति भवति.
उपायः क्रियापदम् अस्ति. क्रियापदम्
अस्ति. क्रियापदम्
ऐ पुट् उपायः एस् कर्मपदम्
कर्मपदं विल् बि आन् अद्वितीय सो इट्स् नाट् अद्वितीय उपाय इस् प्रथम
किम् अस्ति उपायम् अस्ति.
उपायः पञ्चमविभक्ति भगिनि.
नो इट्स् प्रथमविभक्ति एकवचनं
विभक्ति.
सो देट् इस् कर्तृपदम्.
यस्
How, Bhagini? How that is cut?
That's the only Pratama I will put in the sentence, right? What else could it be?
It's not an object, noun or anything, so...
You can also have some implies, but you can you say Te Asti?
Could it be Saha, like referring to the Bakaha?
But what are they asking for? They're asking for a solution.
Solution
to the solution. They are asking for solution to the bakaha, right? It's implied.
No, bakam pruchanti. Here they are. That will be Bakam Pruchanti. One minute here. Ek nimisha. अत्र अस्ति. किं भवति? श्रूयते वा?
श्रूयते भगिनि, इदानीं श्रूयते.
ओ अस्तु. अहं किम् उक्तवती पुनः वदामि. अत्र भवन्तः पृच्छन्ति किमर्थम् उपायः इति कर्तृपदं भवति इति, किल? सर्वे जानन्ति अत्र अस्ति इति क्रियापदं भवति, एकमेव क्रिया अस्ति. अत्र जानीमः कर्तृपदं सर्वदा प्रथमाविभक्तिरूपेण भवति. अस्तु, अत्र अस्माकमिति न भवितुमर्हति. एतत् षष्टिविभक्तिः भवति प्राणरक्षणार्थम् इति, फार् देट् इति भवति, प्राणरक्षणार्थम् अस्ति इति न वक्तुं शक्नुमः. तदपि नास्ति. कोऽपि इति न, अव्ययं, तदपि न भवति. किम् इति प्रश्नः भवति. इति अव्ययं भवति. उपायः इति एकवचने अस्ति, प्रथमाविभक्ति अस्ति. किमर्थं बकः अस्ति इति भवन्तः पृष्टवन्तः. तत्र विनयेन तं पृष्टवन्तः इति अस्ति. तम् इति बकां भवति, तद्वितीया भवति. बकम् अस्ति इति न वक्तुं शक्नुमः. प्राणरक्षणार्थं फार् देट्.
So it's just a word.
Yes.
For that is to save our life, right? Prana rakshanartha.
Prana rakshanartha.
For saving
the life. Hasto? Sir. Okay, Pagini. Dhanyavadam.
And kim asti? Atva kaha asti? उपायः अस्ति इति भवति.
तदा बकः उक्तवान्. बकः इस् कर्तृपदम्, उक्तवान् इस् द क्रियापदं, तव तु प्रत्यय. इतः किञ्चित् दूरे अन्य कश्चन सरोवर आसीत्. कश्चन सरोवर आसीत्. किञ्चित् दूरे इस् आल्सो एड्वर्ब्. अन्यः इस् एड्जेक्टिव्. कश्चन अव्ययं, सरोवरः इस् कर्तृपदम्, आसीत् इस् क्रियापदम्. तत्र प्रभूतं जलम् अस्ति. प्रभूतम् इस् विशेषणं. जलं कर्तृपदम् अस्ति क्रियापदम्. तत् कदापि शुष्कं न भविष्यति. तत् अव्ययं, कदापि विशेषणं. शुष्कम् इस् कर्मपदं. भविष्यति क्रियापदं भविष्यं सूचयति. यदि अव्ययं भवन्तः कर्तृपदम् अस्मत् शब्दस्य षष्ठी विभक्ति
न
भवन्तः
भवान् इति प्रथम
बहुवचनं भगिनि अस्मत् शब्दस्य षष्ठी विभक्ति बहुवचनं
तद् अहं भवति अत्र भवान् अस्ति
ओ सो वाट् इस् दिस्
प्रथम बहुवचनम्
आम्
मम इस् प्रोनौन् पृष्ठं पृष्ठ शब्दस्य द्वितीया आरोहन्ति इस् क्रियापदं हर्हि अव्ययम् अहं कर्तृपदं भवतः इस् भवान् शब्दस्य बहुवचनम् सर्वान् विशेषणं तत्र इस् अव्ययं नयामि क्रियापदम् इति तदा ते जलचराः तदा इस् अव्ययं ते जलचराः इन् दट् जलचराः इस् द कर्तृपदम् महता इस् विशेषणम् उत्साहेन उत्साह शब्दस्य पुल्लिङ्ग एकवचन तृतीया विभक्ति तम् इस् द कर्मपदं द्वितीया विभक्ति परितः इस् अव्ययं स्थितवन्तः क्रियापदं तवतु प्रत्यय बकः कर्तृपदं तान् कर्मपदं पृष्ठे सप्तमी विभक्ति आरोप्य इस् क्रियापदं लय प्रत्यय
ल्यप्
ल्यप् प्रत्यय ततः प्रसीतवान् प्रसीतवान् इस् द क्रियापदं तव तु प्रत्यय किञ्चित् दूरे किञ्चि इस् विशेषणं दूरे इस् विशेष्यम् एका विशेषणं शिला इस् अकारान्तस्त्रीलिङ्ग प्रथम एकवचन आसीत् इस् क्रियापदं तत्र तान् इस् बहुवचनम् अतः तृतीया विभक्ति स्थापयित्वा इस् द क्रियापदं स्वा प्रत्यय सः कर्तृपदं सन्तोषेण तृतीया एकवचन अकारान्तपुल्लिङ्ग सन्तोषशब्दः खादितवान् तव तु प्रत्यय क्रियापदम् एवमेव अव्ययं सः कर्तृपदं बहून् विशेषन् जलचरान् कर्मपदं द्वितीया बहुवचनम् आफ् जलचर खादितवान् इस् क्रियापदं तव तु प्रत्यय एकस्मिन् दिने इस् द कर्मपदं कर्कटकः इस् द कर्तृपदम् उक्तवान् क्रियापदं तव तु प्रत्यय माम अद्य इस् अव्ययं माम् अस्मद् शब्दस्य द्वितीया एकवचनम् इस् द कर्तृपदं नयतु क्रियापदं तुमन् प्रत्यय इति अव्ययम् अस्तु. अद्य अव्ययं कर्कटकस्य षष्ठी आफ् अकारान्त पुल्लिङ्ग कर्कट शब्दः मांसम् इस् द कर्मपदम् अकारान्त नपुंसकलिङ्ग द्वितीयविभक्ति खादामि इस् क्रियापदम् इति अव्ययं चिन्तयित्वा इस् द क्रियापदं त्वान्तं प्रत्यय बकः इस् द कर्तृपदं तम् इस् कर्मपदं द्वितीय आफ् त पृष्ठे इस् अकारान्तपुल्लिङ्ग पृष्ठशब्दस्य सप्तमी एकवचनं आरोपितवान् इस् द क्रियापदं तवत् प्रत्यय विद्यशिला वद्यशिला वद्य इस् द विशेषणं आफ् विशेष्यं शिला गतवान् इस् द क्रियापदं तवत् प्रत्यय च अव्ययं कर्कटकः कर्तृपदं दूरदेव अव्ययं शिलायां सप्तमी आफ् अकारान्त स्त्रीलिङ्गशिलापदं पतितानि द्वितीय आफ् अकारान्त नपुंसकलिङ्ग पतितं सो देट् इस् द कर्मपदम् अस्तिनि बहुवचनम् अस्तीनि बहुवचनं
कर्मपदं किम् इति उक्तवती
पतितानि एण्ड् अस्तीनि द्वयमस्ति भवता द्वितीया भगिनी
आम्
दृष्ट्वा क्रियापदं त्वान्तप्रत्यय बकस्य बक शब्दस्य षष्ठी विभक्ति दुरालोचनां विल् बि द कर्मपदं दुरा इस् विशेषणं आलोचना इस् विशेष्यं ज्ञातवान् इस् द क्रियापदं तवत् प्रत्यय अतः इस् अव्ययं सः इस् कर्तृपदं स्वदन्तद्वयेन इस् तृतीया विभक्ति बकस्य इस् षष्ठी विभक्ति खण्टम् इस् द्वितीया सो देट् इस् द कर्मपदं दृढम् इस् विशेषणं गृहीतवान् इस् क्रियापदं तवत् प्रत्यय वेदनया रोदनं रोदनम् इस् द कर्मपदं वेदनया विल् बि दि एड्जेक्टिव् रैट्
वेदनया इति तृतीया
तृतीया वेदनशब्द
पूर्वन् इस् द क्रिया
भगिनी द स्क्रीन् इस् गान्
आं वा
दृश्यते
ऐ केन् सी इट्
दृश्यते न
क्रियापदं
दृश्यते भगिनी दृश्यते इदानीं न दृश्यते हा गुड् केन् सी इट् नौ
पूर्वन् इस् क्रियापदं सः इस् द कर्तृपदं वञ्चकः इस् द विशेषणं बकः इस् अगेन् कर्तृपदं मृतः इस् क्रियापदं खट् प्रत्यय
प्रत्यय
मृतः इस् क्रियापदं भगिनि
किं किं भगिनि
मृतः इत्युक्ते क्रियापदं किमर्थं क्रियापदं मृतः
मृतः इति क्रियापदम् अस्ति किल
भगिनि in the statement before that vadyashilam prati gatvan cha vadyashilam will be karma padam right
kutra
shilam listen vadyashilam prati gatvan so vadyashilam is karma padam here right vadya will be visheshyam and shilam so shilam is
अस्तु समीचीनं भगिनि प्रश्नाः सन्ति वा अत्र
न भगिनि वि लर्न्ड् अ लॉट टुडे
या दिस वाज अ गुड एक्सरसाइज वेरी लॉन्ग स्टोरी फॉर यू राधा भगिनि
अनन्तरं बृन्दा भगिनी भवति
या आई हैवंट इवन स्टार्टेड येट
इट्स ओके भगिनि
Next is a short story, Bhagini, lucky.
Not every short story is the easiest.
But it is not easy, Bhagini. I went through it twice, I read it, and I still am finding it difficult. I'll probably get there.
I was also quite nervous, and I actually wrote it and sent it to Bhagini. I was getting very confused. With the compound sentences, but
sentences, yes, I know.
Next time, if you want to send that, you can send it as an audio file. It'll be easier.
Okay, Bhagini.
Okay. Did the recording help that I sent that I put in the Bhashita Sanskritam?
Yes, Bhagini.
Yes, Bhagini.
Very
good
place holder for us.
Okay.
But it was very good. I don't think I can reach that level, but...
No problem, Bhagini. You will. Okay. So, Bhavan Shabdasya Rupani Kahavadati. Brinda Bhagini?
Aam Bhagini. Bhavan Bhavantau Bhavantah Bhavantam Bhavantau Bhavatah Bhavata Bhavadhyam Bhavadhihi Bhavate Bhavadhyam Bhavedhyah Bhavatah Bhavadbhyah Bhavatah Bhavadhyam Bhavadhyah Bhavatah Bhavatohu Bhavatam Bhavati Bhavatohu Bhavatsu हे भवन् हे भवन्तौ हे भवन्तः
समीचीनं प्रिया भगिनी भवती 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 शब्दस्य सप्तविभक्तीनां रूपाणि वदतु
भगिनि भवती भवत्यो भवत्यः भवतीं भवत्यो भवतीः भवत्या भवतीभ्यां भवतीभिः भवत्यो भवत्भ्यां
चतुर्थी रैट्
यस् भगिनि Sorry, Bhagini. So, Chaturthi is Bhavatyai, Bhavatibhyam, and then Bhavatibhyaha. That's what I had. Okay. And Panchami is Bhavatyaha, Bhavatibhyam, Bhavatibhyaha. Shashti, Bhavatyaha, Bhavatyoho, भवतीनां सप्तमी भवत्यां भवत्योः भवतीषु एण्ड् सम्बोधनं हे भवती हे भवत्यो हे भवत्यः हे भवत्यौ एण्ड् हे भवत्यः
समीचीनम् इदानीं शीला भगिनी सः शब्दस्य
प्रथम सः तौ ते द्वितीया द्वितीयाविभक्ति तं तौ तान् तृतीया तेन ताभ्यां तैः चतुर्थी तस्मै ताभ्यां तेभ्यः पञ्चमी तस्मात् ताभ्यां तेभ्यः षष्ठी तस्य तयोः तेषां सप्तमी तस्मिन् तयोः तेषु
समीचीनम् इदानीं सा शब्दस्य सप्तविभक्तीनां रूपाणि राधा भगिनी
आं भगिनि सा ते ताः तां ते ताः तया ताभ्यां ताभिः तस्यै ताभ्यां ताभ्यः तस्याः ताभ्यां ताभ्यः तस्याः तयोः तासां तस्यां तयोः तासु
समीचीनम् अस्तु अत्र प्रश्नाः सन्ति वा
Bhagini, I want Bhavati's Shashti and Saptami, Bhagini.
Bhavati, Bhavatyaha, Bhavatyoho, Bhavatinam, Tachashti Bhavati, Saptami, Bhavatyam, Bhavatyoho, Bhavatishu.
You have something different.
Bhagini, I had a question.
Bhagini.
When we form a sentence and we want to find out the karma padam, we generally ask kim karoti. For karta, what do we ask?
Kaha karoti.
And it's generally prathama vibhakti ekvachanam or it can be bahuvachanam?
It can be bahuvachanam, but it will always be prathama vibhakti, that's all. प्रश्नाः सन्ति वा अन्यप्रश्नाः
अस्ति भगिनि
गीतासोपानं कुर्मः वा अथवा अत्र स्थगयामः वा
Yeah, we did it, भगिनि
Now, shall we do like a page of गीतासोपानं or should we stop here?
No, we can do it. We can do it. Then we'll have some homework.
Bhagini, there was one more homework. The Nasti. Asti Nasti from the Gita.
Yeah, that's what she was asking.
Yeah.
Yeah. Did you have any questions in that?
No, I think we found most of them. Just some of the words I'm a little unsure of, Bhagini.
You don't have to understand everything.
No. I found the asti word precisely. That's all I wanted to know.
Okay.
Bhagini, are you talking about the sloka? We have to find the asti nasti, right?
Yeah.
Yes.
Okay.
So, Bhagini, there was this one, the third shloka, 4.31, I think.
Yeah, one minute. Nalam. Go to that page.
Loko satya yajnasya.
Yeah, so the asti word is in that, right? Loka asti.
Loka satya. Yeah.
Okay. I wasn't sure of that.
4.1. 31 it will
yeah loka lokostyasyagnyasya right
yeah
yeah and even in the last shloka the 8.5 it mm-hmm. nastyatra I think yeah. I'm not
na,
sure
na na asti
yes
okay thank you very much
अनन्तरं एतत् कुर्मः वा
तत्र का परिदेवनम्
अथवा गृहपाठरूपेण
गृहपाठं भगिनि
ओके
If it's okay with the others, I don't know.
Yeah, I think so. We'll be able to. We can just read the sentences and do the exercise on our own, I think. So we can ask questions.
Astu. Yeah. Priya Bhagini, Bhavati Patatu.
Priya Bhagini is on mute, I think.
अस्तु शीला भगिनी भवती पठतु
अर्जुनः कुत्र अस्ति अर्जुनः अत्र अस्ति भीष्मः कुत्र अस्ति भीष्मः तत्र अस्ति भगवान् सर्वत्र अस्ति कोष्टकं दृष्ट्वा कः कुत्र अस्ति इति वदत पाण्डवपक्ष कौरवः पक्ष कौरवपक्षः पाण्डवपक्षः अभिमन्युः युयुत्सुः घटोत्कचः द्रुपदः विराटः कौरवपक्षः भीष्मः कृपः भागदत्तः जयद्रथः ग्रीष्टकेतुः यथा अभिमन्यु अत्र अस्ति भीष्मः तत्र अस्ति एतानि वाक्यानि उच्चैः पठत
अत्र एकनिमिषः भगिनि अत्र अत्र वदनीयम् अभिमन्युः अत्र अस्ति भीष्मः तत्र अस्ति युयुत्सुः अत्र अस्ति कृपः तत्र अस्ति
कटोत्कचः
अत्र अस्ति भगदत्तः
तत्र अस्ति
द्रुपदः अत्र अस्ति जयद्रथः तत्र अस्ति विराटः अत्र अस्ति दृष्टकेतुः तत्र अस्ति Bhagini, what do you mean by Tatra Ka Paridevana? What is Paridevana?
Main point.
Main point.
Pain.
Pain, oh, okay.
Pain point?
Yeah. So the previous one, it's all related to the picture. So the previous one had a caption of Nasti Buddhi. Ayuktasya, right? That uh-huh. is, in Shloka 2.66 starting, you have this...
But this is Paridevana, not Vedana. Vedana would be pain, right? This is Paridevana.
Yeah, but that's what it is. What is the pain point?
Oh.
Paridevana
is actually pain. I am not sure Devana is...
Yeah.
No, when I checked up, that's what it said. It's related to the page. So I think Bhagavan Sarvatra says... The Bhishma Acharya on this thing is the Paridevana. Ka Paridevana.
Oh. Okay.
Paridevana can also be sorrow, right?
Yeah, Paridevana, sorrow.
अस्तु अत्र प्रश्नाः सन्ति वा एतत् अभ्यासं भवन्तः गृहपाठरूपेण कुर्वन्ति वा?
आं भगिनि.
अस्तु, अत्र स्थगयामः. राधा भगिनि.
आं भगिनि, शान्तिमन्त्रम्. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरि ओम्.
धन्यवादः भगिनी.